एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः ध्रुव भट्टराई। राष्ट्रपतिना विद्यादेवी भण्डारिणा गताषाढमासस्य 29 दिवसे संघटिताय मन्त्री परिषदि ह्य परिवर्तनम् विहितम् वर्तते। राष्ट्रपतिना भण्डारिणा संविधानस्य 67तम धाराया नवमोपधाराया अष्टसप्ततितम धाराया प्रथमोपधारायाश्चानुसारेण प्रधानमन्त्रिणा शेरबहादुर देउवाभिदस्य परामर्शेन चतुर मन्त्रिणा एकम राज्यमन्त्रिणां संयुज्य कार्यविभाजनम् विहितमिति राष्ट्रपति कार्यालयो ज्ञापयति। नवीनेषु मन्त्रीषु जीवनराम श्रेष्ठेन संस्कृति पर्यटन नागरिक उड्डयन मन्त्रालयस्य, मेटमणि चौधरीणा नगरीय विकास मन्त्रालयस्य, भवानी प्रसाद खापुङ इत्यनेन स्वास्थ्य जनसंख्या मन्त्रालयस्य, शेरबहादुर कुंवरेण च श्रमवृत्ति सामाजिक सुरक्षा मन्त्रालयस्य दायित्वं प्राप्तं वर्तते। एवमेव हीराचन्द्र केसी स्वास्थ्य जनसंख्या राज्यमन्त्रीपदे नियुक्तो वर्तते। इमे नेकपा एकीकृत समाजवादिन पक्षत सर्वकारी सहभागिन कारिता सन्ति। प्रतिनिधि सभाया गतदिवसे उपवेशन राष्ट्रिय सभातः प्राप्तं विधेयकद्वयं स्वीकृतं वर्तते। गतदिवसेन द्वितीय उपवेशन राष्ट्रिय सभायाम् उत्पन्नं गत विक्रम वर्षीयं नित्यानुसन्धान प्रतिष्ठान विधेयकं राष्ट्रिय सभाया विहितेन संशोधन सहितं वर्ष चतुष्टय पूर्वस्य लोकसेवायोग सम्बद्धं विधेयकं च स्वीकृते स्तः। उपवेशे प्रधानमन्त्रिणा शेरबहादुर देउवाभिदस्य पक्षत विधि न्याय संसदीय विषय मन्त्रिणा गोविन्द शर्मा कोइरालाभिदेन राष्ट्रिय सभात प्राप्त लोकसेवायोग सम्बद्धं विधेयकं विचार्यतामिति प्रस्ताव प्रस्तुतः तदनु तदाधृत्य सैद्धान्तिक विमर्शनं विहितम् आसीत्। विमर्शने सहभागिन सांसदा लोकसेवायोगस्य सर्वेषु प्रदेशेषु समानुपातिक रूपेण विस्तारस्य, प्रदेश लोकसेवायोगेन सह स्थापनीयस्य सम्बन्धस्य, परीक्षा सञ्चालने समन्वयस्य, राष्ट्रिय दक्ष जनशक्तेः कर्मचारिणां च उत्पादनस्य च विषयेषु ध्यानाकर्षणम् अकारयन्। तदुत्तरन् विधि न्याय संसदीय विषय मन्त्री गोविन्द प्रसाद शर्मा कोइराला नित्यानुसन्धान प्रतिष्ठानम् सर्वकारस्य नित्यानुसन्धानेन सम्बद्धम् प्रतिष्ठानम् अस्तीति हेतोः अन्याभ्य संघ संस्थाभ्य प्रतिष्ठानेभ्यश्च भिन्नम् अस्तीति अवोचत्। उपवेशे लोकसेवायोगस्य 77,200 वैक्रमाब्दस्य श्रावण मासतः गत वैक्रमाब्दस्य आषाढमासावधिकं 62तम वार्षिक प्रतिवेदनं प्रस्तुतं वर्तते। तत्पूर्वं विशेष समये भाषमाणा सांसदा सामुदायिक विद्यालयेषु अविलम्बं पाठ्यपुस्तकं प्रापयितुं सर्वकारस्य ध्यानम् आकर्षयन्। उपवेशे सांसदा योगेश भट्टराई, पुष्पा भूषाल, गौतम रेखा शर्मा च विद्यालयेषु पाठ्यपुस्तक प्रापणस्य, संघ प्रदेशानाम् आसन्न निर्वाचन उपस्थापयन्। राष्ट्रिय सभाया ह्यस्तनोपवेशे एतद् विक्रमवर्षीयस्य विनियोजन विधेयकस्य अन्तर्गतानि मन्त्रालयानां विभिन्न शीर्षकाणि आश्रित विहिते विमर्शने उत्थापितानां प्रश्नानां सम्बद्ध मन्त्रिभिः उत्तरं प्रदत्तमस्ति। विनियोजन विधेयकस्य विमर्शने सांसदे उत्थापितान् प्रश्नान् उत्तरन् उद्योग वाणिज्य पूर्ति मन्त्री दिलेन्द्र प्रसाद बडु अभाषत। शिला तैलीय पदार्थेषु सर्वकारेण अधुनावधि गृह्यमाणं करं समायोज्य मूल्यवृद्धिं न्यूनीकर्तुं निर्णीतमस्ति। मन्त्री बडु ह्यस्तन सादेव क्रियान्वयनेन पेट्रोल तैले प्रति लिटरमितं 20 रूप्यकाणि न्यूनीकृत्य 79% रूप्यकाणि, डीजल तैले च 29 रूप्यकाणि न्यूनीकृत्य 63% रूप्यकाणि च मूल्यं निर्धारितम् इति ज्ञापन अवोचत। सर्वकारं लोकतान्त्रिक जनोत्तरदायी च वर्तते इत्यतः जनतां प्रति सदा संवेदनशीलोऽस्ति। शिला तैले पदार्थानां मूल्यस्य न्यूनीभवनेन सहैव इतर वस्तूनां सेवायाश्च मूल्यमपि न्यूनं भवतीति भाषमाण मन्त्री बडु विषयगत मन्त्रालये नियामक निकायेन च मूल्यवृद्धि अनुगमनं विधीयते इति अज्ञापयत्। एवमेव कृषि पशुपक्षी विकास मन्त्री महेन्द्र राय यादव अगदत् रासायनिक मलस्य सहजापूर्तये मन्त्रालय निरन्तरं प्रयासरत सन्नपि विश्वापणे भूतयो आरोह बरोयो कारणेन मलस्य आपूर्तौ समस्या सृष्टा अस्ति। कृषि मन्त्री यादव कृषि बेलायं जायमानं मलाभावं न्यूनीकर्तुं रासायनिक मलस्य सहजापूर्तये च भारत सर्वकारेण सर्वकार प्रक्रियता आगामी पञ्चवर्षाणां कृते पञ्चलक्षाणि 65,000 चेति मेट्रिक टन परिमाणस्य यूरिया मलम्, लक्षत्रयं 70,000 चेति मेट्रिक टन परिमाणस्य डीएपी मलम् च क्रेतुं संविदा कृतास्थिति अज्ञापयत्। उपवेशे शिक्षा विज्ञान प्रविधि मन्त्री देवेन्द्र पौडेलः शिक्षा क्षेत्रं समीचीनं सदैव अन्य क्षेत्राणि समीचीनानि भवन्तीति चर्चन अवोचत्। क्षमाया दक्षायाश्च जनशक्ति अनुत्पादन यावत इतर क्षेत्राणि प्रभावकारिणी न भवन्ति इति हेतोः शिक्षा क्षेत्रे विमर्शनाय समय वर्धनीयः। विधि न्याय संसदीय विषय मन्त्री गोविन्द शर्मा कोइराला अभाषत असक्षम जनानां कृते विधि सहायता दीर्घकाल सञ्चाल्यमाना अस्ति। युवा क्रीडा मन्त्री महेश्वर जंग गहतराजः युवा प्रतिभा अन्विष्य प्रोत्साहयति इति भाषमाणः युवसु नैतिक सहयोगी स्वयंसेवी भावनाय विकासस्य सर्वेषु प्रदेशेषु मादक पदार्थ दुर्व्यसनस्य विरुद्धे सञ्चेतनाभिवृद्धिः स्काउट प्रशिक्षणस्य च व्यवस्था विधीयते इति ज्ञापितवान्। वन वातावरण मन्त्री रामसहाय प्रसाद यादवः वनस्य व्यवस्थापनं सार्वजनिकेषु नदी क्षेत्रेषु च वृक्षारोपणं विधीयते इति भाषमाणः वनक्षेत्रम् आर्थिकम् उत्पादनमूलकं च सम्पादयितुं काष्ठानाम् उत्पादने वृद्धिं कृत्वा काष्ठेषु आत्मनिर्भरताया नीति सर्वकारस्य वर्तते इति ज्ञापितवान्। राष्ट्रियसभाया अपरोपवेश अद्य पूर्वाह्नस्य एकादशवादने पुनर्वसति। राष्ट्रपति विद्यादेवी भण्डारी कथयति सिन्धुपाल्चोक जनपदात् कतिपय अग्रणीभिः प्रारब्धेन सामुदायिक वनेन आराष्ट्रं वनानां संरक्षणे प्रदत्तं योगदानं प्रशंसनीयं वर्तते। सामुदायिक वनोपभोक्तृ महासंघेन ह्यः शीतल निवासवर्तिनी राष्ट्रपति भवने आयोजिते वन सम्बद्धे विमर्शन कार्यक्रमे राष्ट्रपति भण्डारी अवदत् राष्ट्रिय अर्थतन्त्रे वनक्षेत्रस्य योगदानं वर्धितव्यम्। राष्ट्रपति भण्डारी देशस्य आर्थिक क्षतिं न्यूनीकर्तुं प्रसिद्धानां मूलौषधानां कृष्या देशस्य व्यापारिक क्षतिश्च न्यूनीकर्तुं शक्यते इति विश्वासं व्यक्तवती। प्रधानमन्त्री शेरबहादुर देउवा कथयति राष्ट्रे आयोज्यमानेन विज्ञान प्रविधि सम्मेलनेन राष्ट्रविकासे रचनात्मक भूमिका निरूह्यते। नाष्टनाम्ना विज्ञान प्रविधि प्रतिष्ठानेन आयोजितं त्रिदिवसीयं सम्मेलनं ह्यः उद्घाटयन् प्रधानमन्त्री देउवा समाज परिवर्तनाय विज्ञान प्रविधि विकास सम्बद्ध गतिविधिभिः राष्ट्रस्य विकासे महत्वपूर्ण भूमिका निरूह्यते इति धारणां व्यक्तवान्। प्रतिष्ठानस्य कुलपतिश्च प्रधानमन्त्री देउवा विज्ञान प्रविधौ विकास विस्तारयो केन्द्रीभूय आयोज्यमानेन सम्मेलनेन समग्र देशस्य जनता लाभान्विता भविष्यतीति विश्वासं च व्यक्तवान्। राष्ट्रपतिना विद्यादेवी भण्डारिणा कैलाश राजपोखरेल अस्ट्रेलिया देशस्य कान्तारिजाल इजरायल देशस्य च कृते नेपालस्य आवासीय राजदूतपदे नियुक्तौ स्तः। राष्ट्रपतिना भण्डारिणा नेपालस्य संविधानस्य अनुसारेण मन्त्रीपरिषद परामर्शेन पोखरेल रिजालस्य राजदूतपदे नियुक्तौ इति राष्ट्रपति कार्यालयस्य प्रवक्त्रा सागर आचार्येण ह्यः प्रकाशितं विज्ञप्तौ उल्लिखितम् अस्ति। सभामुख अग्निप्रसाद सापकोटा संसदं जीवितां जनमुखां च निर्मातुम् आत्मना सदैव सक्रियता भवतीति वदति। सभामुख सापकोटा संसदीय विषय पत्रकार सम्माजेन ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे संसदीय समिति अभ्यास प्रथम संसद संघीय संसद यावत् इति नामकं पुस्तकं विमोचन अवोचत। पत्रकारणाम् अनुकूल भूमिकाया कारणेन लोकतन्त्रेण यथार्थ दिक् प्राप्ता वर्तते। असौ निष्ठया विना लोकतन्त्रं न सबलायतीति चर्चन् अभाष गणतन्त्रं नेपाली जनान आस्थाय बिन्दुर्वर्तते। सभामुख सापकोटा भ्रष्टाचारे न नियन्त्रिते गुणस्तरीय विधौ न निर्मिते च राष्ट्रं धराशायी भविष्यतीति तर्कयन् भ्रष्टाचारस्य नियन्त्रणाय सर्वेषां पक्षाणां क्रियाशीलताय बलं प्रादात्। कार्यक्रमे वरिष्ठ पत्रकार हरिबहादुर थापा पुस्तकस्य टिप्पणीम् अकरोत्। गृहमन्त्री बालकृष्ण खाँड वदति मादकौषधानां दुर्व्यसनात् यून रक्षणं सर्वेषां दायित्वं वर्तते। मादकौषधानां दुरूपयोगस्य नयनानयनस्य च विरुद्धस्य अन्तर्राष्ट्र दिवसस्य अवसरे ह्यः आयोजिते समारोहे गृहमन्त्री खाँड एवम् अवोचत् इति समाचारः।